इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। केन्द्रीय गृहमन्त्री अमितशाहः अद्य असमराज्ये विभिन्नानां विकासात्मक परियोजनानाम् उद्घाटनं करिष्यति। असौ ह्यः सायंकाले गोलाघाट नगरं सम्प्राप्तवान्। श्रीशाहः गोलाघाट जनपदे डेरगांवस्थले मुख्यमन्त्रिणः हिमन्त बिस्व शर्मा इत्येतस्य, केन्द्रीय जलपोतस्थानक जलमार्ग मन्त्रिणः सर्बानन्द सोनोवालस्य च उपस्थित्यां अत्याधुनिकस्य लाचित बर्फुकन आरक्षकादम् म्याः उद्घाटनं विधास्यति। अथ च आरक्षाकादम्याः एव आवास परियोजनानाम् आधारशिलां स्थापयिष्यति। गृहमन्त्री अद्य मध्याह्ने मिजोरम नगरं प्रति यास्यति। तदनु आइजोल नगरस्य मध्यतः जोखावसांग इत्यत्र असम राइफल्स बेस इत्येतस्य स्थानान्तरण सम्बद्धे एकस्मिन् समारोहे सहभागं करिष्यति। श्वः श्रीशाहः कोकराझार जनपदस्य डोटमास्थले ऑल बोडो स्टूडेंट यूनियन इत्येतस्य 75वां वार्षिक सम्मेलनं सम्बोधयिष्यति। तदनु अष्टपूर्वोत्तर राज्यानां मुख्यमन्त्रिभिस्साकं गुवाहाटी नगरे पूर्वोत्तर राज्येषु नवीनापराधिक विधेः कार्यान्वयनस्य समीक्षाम् अपि विधास्यति। महाराष्ट्र राज्यं प्रधानमन्त्री सूर्य घर योजनायाः अन्तर्गतं समग्रे हि देशे द्वितीयं स्थानं लब्धम्। इमां सूचनां राज्यस्यास्य मुख्यमन्त्री देवेन्द्र फडणवीसः सामाजिकान्तरजाल सन्देश पटले प्रदत्तवान्। अस्याः योजनायाः अन्तर्गतं 37,9,290,000 यावत् सौरोर्जा परियोजनाः स्थापयित्वा महाराष्ट्र राज्येन लक्ष्यमिदम् अधिगतम्। श्री फडणवीसः इत्यपि सूचितवान् यत् महाराष्ट्र राज्यम् अस्मै प्रक्रमाय सक्रियतया योगदानं दास्यति। अस्याः योजनायाः अन्तर्गतं साम्प्रतं यावत् 9,000,000+ यावत् सौरोर्जा परियोजनाः संस्थापिताः। अद्य विश्वोपभोक्तृधिकार दिवसः परिपाल्यते। अयं दिवसः प्रतिवर्षं मार्चमासस्य 15 दिनांके उपभोक्तृणाम् अधिकारान् संरक्षयितुं सुरक्षा च स्थापयितुम् आमान्यते। अस्मिन् वर्षे अस्य दिवसस्य शीर्षको विद्यते संधारणीय जीवनशैल्यै न्यायोचित परिवर्तनमितम्। भारतस्य खनन क्षेत्रस्य संवर्धनाय खनन मन्त्रालयेन गोवा प्रशासनस्य सहयोगेन प्रथमवारं अन्वेषणानुज्ञापत्राणां सघोष विक्रयणं समारब्धम्। केन्द्रीय कृष्णांगार खनि मन्त्री जी किशन रेड्डी इत्येषः गोवा राज्यस्य मुख्यमन्त्री डॉ प्रमोद सावंतः गोवा राज्ये एकस्मिन् ऐतिहासिके कार्यक्रमे अस्य उपक्रमस्य अनावरणम् अकुरुताम्। एतस्मिन् सघोष विक्रये 13 संख्यकेभ्यः अन्वेषणानुज्ञापत्र सम्बद्धेभ्यः खण्डेभ्यः ध्यानं प्रदास्यते। येषु दुर्लभ मृदातत्व हीरक ताम्र इत्यादयः खानिज पदार्थाः सम्मिलिताः भविष्यन्ति। वाणिज्योद्योग मन्त्री पीयूष गोयलः कथितवान् यत् असौ अमेरिकीय व्यापार प्रतिनिधिना जेमिसन ग्रीर इत्यमुना साकं पारस्परिकरूपेण लाभकारी द्विपक्षीय व्यापार सन्धिपत्रे एकां दूरदर्शिनीं चर्चां सम्पादितवान्। घटिते रेलयानापहरणे भारतस्य नवदिल्ल्याः सहभागः आसीत् इति पाकिस्तानदेशस्य आरोपः आधारहीनः इति भारतं सूचितवान्। पाकिस्तानपक्षस्य भाषणेषु सञ्चारमाध्यमानां प्रश्नानां प्रत्युत्तरे विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् वैश्विकातंकवादस्य केन्द्रबिन्दुः कुत्र अस्ति इति सम्पूर्णं विश्वं विजानाति। भारतीयान्तरिक्षनुसन्धान संघटनेन उपग्रह प्रक्षेपणानां माध्यमेन भूयोऽपि 43,000,000,000 अमेरिकीय डॉलर परिमितायाः मुद्रायाः वैदेशिक मुद्रा राजस्वम् अधिगतम् इति वार्ताः।